इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य नवदिल्ल्याः यशोभूमौ सेमिकॉन इंडिया 25+ इत्यस्य उद्घाटनं करिष्यति। त्रिदिवसीयं सम्मेलनं देशे दृढं सुस्थिरं च सेमीकंडक्टर इकोसिस्टम इत्यस्य प्रगति विषये केन्द्रितं भविष्यति। प्रधानमन्त्री श्वः अपि अस्मिन् सम्मेलने भागं ग्रहीष्यति, यत्र सः सीईओ इत्येतेषां वर्तुलोत्पीठिका सम्मेलने भागं ग्रहीष्यति। अस्मिन् सम्मेलने 48+ अधिक देशानां 2500+ प्रतिनिधिभिः सह 20+ जनाः भागं ग्रहीष्यन्ति। प्रधानमन्त्री नरेन्द्र मोदी अद्य वीडियो कॉन्फ्रेंसिंग इत्यनेन माध्यमेन बिहार राज्य जीविका निधि सहकारी संघ लिमिटेड इत्यस्याः संस्थायाः शुभारम्भ करिष्यति। अनेन उपक्रमेण ग्रामीण महिलासु उद्यमशीलता विकासः सुदृढः भविष्यति, समुदायाधारित उद्यमानां विकासे तीव्रतापि आयाति। अस्मिन् अवसरे प्रधानमन्त्री संस्थायाः बैंक लेखायां 50+ crore rupees अपि प्रेषयिष्यति। प्रधानमन्त्री नरेन्द्र मोदी प्रावोचत् यत् आतंकवाद विषये मानदण्डद्वयम् अस्वीकार्यमस्ति। चीनस्य थियाचिन नगरे आयोजिते एससीओ इति संघाई सहयोग संघटनस्य शिखर सम्मेलने निजे वक्तव्ये प्रधानमन्त्री मोदी आतंकवादः मानवतायै एकं बृहत् समाह्वानम् अस्ति इति प्रत्यपादयत्। असौ प्रोक्तवान् यत् आतंकवादस्य सर्वाण्यपि रूपाणि निन्दनीयानि सन्ति। श्रीमोदी न्यगादीत् यत् भारतं विगतेभ्यः 4 दशकेभ्यः आतंकवादस्य समस्यां सम्मुखीकुरुते। अत्रावसरे अमुना पहलगाम आतंक्याक्रमणस्यानन्तरं भारतेन साकं ऐक्यबद्धता प्रकटयन् परेभ्यः सर्वेभ्यः देशेभ्यः आभारभारः अपि व्यक्तीकृतः।
निर्मम आतंकवाद का दंश झेल रहा है, कितनी ही माताओं ने अपने बच्चे खोए और कितने बच्चे अनाथ हुए। हाल ही में हमने पहलगाम में टेररिज्म का बहुत ही घिनौना रूप देखा। इस दुख की घड़ी में जो मित्र देश हमारे साथ खड़े रहे, मैं उनका आभार व्यक्त करता हूँ।
असौ अग्रे अवदत् यत् भारतस्य दृष्टिः नीतिश्च त्रिषु प्रमुखस्तम्भेषु सुरक्षा सम्पर्कः अवसरश्चेत्येतेषु आधारिता अस्ति। नागरिक विमानन महानिदेशालयेन प्रथमवारं एयर इंडिया SATS एयरपोर्ट सर्विसेज प्राइवेट लिमिटेड इत्यस्मै सुरक्षा स्वीकृतिः प्रदत्ता। एतेन सह भारतम् एशिया प्रान्त क्षेत्रे मलेशिया देशानन्तरं द्वितीयः देशः अभवत्। यः ICAO दिङ्निर्देशानुसारम् एतादृशं व्यापकं रूपरेखां कार्यान्वितवान्। प्रधानमन्त्री नरेन्द्र मोदी पंजाबस्य मुख्यमन्त्रिणा भगवन्त मानेन सह ह्यः दूरभाषेण भाषितवान्। पंजाबराज्ये वर्षया जलप्रलयेन उत्पद्यमानायां परिस्थित्यां तौ चर्चितवन्तौ। सर्वकारीय सूत्रानुसारं चीनदेशात् दिल्ल्यागमनानन्तरं तत्क्षणमेव श्रीमोदी पंजाबस्य मुख्यमन्त्रिणं राज्याय सर्वविध साहाय्यं समर्थनं च आश्वासितवान्। कुनार प्रान्ते भूकम्पानन्तरं भारतं अफगानिस्तानदेशं प्रति 15 tons मानवीय साहाय्यं प्रेषितवत्। विदेशमन्त्री डॉ एस जयशंकरः अफगानिस्तानदेशस्य विदेशमन्त्री मौलवी अमीर खान मुत्तुकी इत्यनेन सह वार्तालापं कृत्वा अफगानिस्तानदेशे मृतान् प्रति शोकं प्रकटितवान्। एकस्मिन् सोशल मीडिया सन्देशे मन्त्रिणा उल्लिखितं यत् अद्य भारतात् अन्याः साहाय्योद्धार सामग्र्यः प्रेषिताः भविष्यन्ति इति। अवधेयं यत् अफगानिस्तानस्य कुनार प्रान्ते ह्यः समागते 6 तीव्रतायुते भूकम्पे न्यूनातिन्यूनं 12800 जनाः पञ्चतां प्राप्ताः सन्ति, तत्रैव प्रायः 800+ जनाः व्रणिताः सन्ति। अफगान प्रशासनेन एतत् पुष्टीकृतमस्ति। इति वार्ताः।